एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः सार्वजनिक महत्वस्य विषयेषु केन्द्रीभूय समस्यानां समाधानाय वस्तुगत प्रयासं विधातुं कर्मचारी प्रशासनं निर्दिशति। काष्ठमण्डपस्य तीनकुने स्थाने अधिगृहितायाः भूमेर्विषये उत्पन्नायाः क्षतिपूर्ति समस्यायाः समाधानस्य, काष्ठमण्डप उपत्यकायां गृहभूमिहीनानां व्यवस्थापनस्य च सम्बन्धे विमर्शनाय ह्य उपविष्टे उपवेशे प्रधानमन्त्री प्रचण्डः एकेन मन्त्रालयेन निकाय च सह सम्बद्धस्य विषयस्य अन्यत्र स्थानान्तरणस्य समस्यायाः पलायनस्य च कार्यं केनापि न कर्तव्यमिति चर्चयन् तत्र ध्यानं केन्द्रीकर्तुं निरदिशत्। उपवेशे तीनकुने स्थानस्य भूमेः नेपाल सर्वकारस्य नाम्नि पञ्जीकरणस्य परिस्थितौ अपि क्षतिपूर्ति समस्यायाः समाधानस्य अवशिष्टत्वात् एतस्याः दीर्घकालिक समस्यायाः समाधानोपायस्य तीनकुने जड़ीबुटी भूमिगत पारगमन कार्यस्य प्रभावकारित्वद्भावनस्य च विषययोः विमृष्टमिति प्रधानमन्त्रिणः सचिवालयो ज्ञापयति। एवमेव उपवेशे काष्ठमण्डप उपत्यकायाः गृहभूमिहीनानां समस्यायाः समाधानाय विहितस्य प्रयासस्य एतस्य निष्कर्षे प्रापणार्थम् अन्तरनिकायस्य प्रभावकारितायाः विभिन्नानां विकल्पानां च सम्बन्धेऽपि विमृष्टमिति सचिवालयोऽसौ सूचयति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भासते सर्वकार सुशासनस्य कार्यैः अग्रे वर्धित पश्चात्तन समये एतस्य परिणामश्च सार्वजनिक जायमानो वर्तते, परं सर्वकारस्य इमानि कार्याणि विलोक्य शोभनानि कार्याणि शोभनानीति कथनस्य संस्कार दृष्टो नास्ति। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य विभिन्नानां संचारमाध्यमानां सम्पादकैः सह आयोजितायाम् अन्तर्क्रियायां प्रधानमन्त्री प्रचण्डः सर्वकारेण क्रमेण भ्रष्टाचारस्य कारणानि सार्वजनीकृत्य सुशासनस्य प्रत्याभूति प्रदानत्वेन कार्याणि विधीयमानानि सन्तीति स्पष्टं, सदपि प्रतिपक्षिणा तद् अदृष्टमिव मत्वा प्रत्युतः जनतायाः स्वरस्य मुखरीकरणस्य स्थानस्य संसदः अवरोधनम् उचितं नास्तीति अभासत। प्रधानमन्त्री प्रचण्ड विधीयमानेन अनुसन्धानेन अवैधानिकं कार्यमिदं न केवलं विमानस्थलस्य प्रहरिणः प्रवेशशुल्क कार्यालयस्य चैव अपितु पदशक्तिवतां जनानां कतिपयानां वैदेशिक नागरिकाणां च संलग्नतायां विहितमिति दर्शनात् एतन् निष्कर्षं प्राप्य दोषिणां दण्डनार्थं कठोरेण प्रवर्तयितुं प्रहरीबलं प्रशासनं च निर्दिष्टे स्तः इति समस्पष्टयत्। माओवादी नेतुः कृष्णबहादुर मरा इत्यस्य एतदीय पुत्रस्य च नामनि अपि एतस्मिन् प्रकरणे संयोजिते इति प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्डः प्रहरिणः केन्द्रीयानुसन्धान निकायेन दिनद्वयाभ्यन्तरे एव एतद् स्पष्टीकरिष्यते इत्युक्तमिति चर्चयन् दोषीषु दृष्टेषु न कोऽपि त्यक्तव्य इत्युक्तम् अस्तीति अवोचत। प्रधानमन्त्री प्रचण्ड पश्चात्तन समये भूटान देशीय शरणार्थी प्रकरणात् ललिता निवास भूमे प्रकरणं विपुलमात्रायां अवैध रूपेण विमानस्थलात् बहिर्भूतस्य सुवर्णस्य निग्रहण प्रकरणं च सर्वाणि वर्तमान सर्वकारेण सुशासनाय उद्भावितायाः प्रत्याभूतेः प्रारम्भम् अस्तीति समस्पष्टयत्। प्रचण्ड आगामिनः भाद्रमासस्य त्रिंशे दिवसे अमेरिका देशं प्रस्ताता पत्रकारै सह भाषमाणः असौ एवम् अज्ञापयत्। आत्मना भाद्रस्य त्रिंशे दिवसे संयुक्त राष्ट्रसंघस्य महासभायां सहभागितायै अमेरिका देशाय प्रस्थास्यते, ततः आश्विनस्य चतुर्थे दिवसे चीन देशाय प्रस्थास्यते इति च अज्ञापयत्। ऐ सोमवारं चीन भ्रमणस्य क्रमे चित महत्वपूर्ण सहयोग संविदाः सम्पत्स्यन्ते इति असौ असूचयत्। चीनदेशस्य बीआरआई आयोजनायाः विषये व्यक्तायां जिज्ञासायाम् असौ नेपालेन सह सम्पन्नायाः बीआरआई संविदायाः क्रियान्वयनस्य विषये विमृक्षते इति भाषमाणः एतस्याः आयोजनायाः अन्तर्गतः नेपाले अनुदान सहयोग सम्बद्धः प्रस्तावः आत्मना चीनदेशस्य समक्षं प्रस्तोष्यते इति असूचयत्। चीन भ्रमणस्य क्रमे चीनदेशीय राष्ट्रपतिना शी चिनफिङ इत्यनेन सह द्विपक्षीय मेलवार्ता भविष्यति इति प्रधानमन्त्री प्रचण्डः अबोधयत्। सर्वकारेण भूपयोग नीति स्वीकृता वर्तते। सिंह प्रसाद वर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य उपविष्टेन मन्त्रिपरिषद उपवेशेन उपयोग नियमावली स्वीकृता अनेन निर्णयेन सैव भूखण्डीकरणस्य अवरोधावस्था निरस्तास्तीति उपवेशस्य पश्चात् भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला अज्ञापयत् स्वीकृत भूपयोग नियमावल्याः भूखण्डीकरणे नामान्तरणे च स्थिताः समस्याः समाधास्यन्ते इति विश्वासः सर्वकारस्य अस्ति इति मन्त्री ज्वाला अवोचत्। एवमेव मन्त्री परिषद उपवेशेन गोर्खा जनपदे प्राप्ताया बहुमूल्य शिलाया गोर्खा प्रासादे स्थापनस्य निर्णयेन सहैव बहुमूल्य शिलाया संरक्षणकर्त्रे परिवाराय धन्यवाद प्रदानेन पुरस्कर्तुम् निर्णीतमिति मन्त्री ज्वाला अज्ञापयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति वामान्दोलनस्य संरक्षणाय प्रतिनिधि सभा विघटिता आसीत्। दलस्य अनुशिक्षण विभागस्य बागवती प्रदेश संगठन समित्या ह्य काष्ठमण्डपे आयोजितं प्रशिक्षक प्रशिक्षण कार्यक्रमं सम्बोधयन् असौ प्रतिनिधि सभायाम् अविघटितायां सत्यं वामानन्दोलनं समाप्तं स्यादिति अतर्कयत। प्रतिनिधि सभायाः विघटनं तदा अपरिहार्यम् आसीदिति भाषमाणः अध्यक्ष ओली प्रतिनिधि सभायाः विघटनं राजनीतिकं संवैधानिकं संसदीयं च कार्यम् आसीदिति प्रत्यपादयत्। त्रिभुवनान्तर्राष्ट्रिय विमानस्थले प्रवेशन शुल्कस्य अर्पणेन विनैव नेपालम् प्रवेशितस्य सुवर्णस्य वास्तविकम् परिमाणम् 60 किलो 16.77 ग्राम चेति निर्धारितमस्ति। नियन्त्रितस्य सुवर्णसहितस्य वस्तुनः सम्पूर्ण परिमाणम् 55.7 किलो 68.74 ग्राम चेति परिमितम् आसीत्। नेपाल राष्ट्रकोषस्य अन्तर्गतया मुद्रण महाशाखया वस्तुनि पृथक्कृत्य केवलं सुवर्णे परिमिते सति 60 किलो 68.77 ग्राम चेति परिमितम् निर्धारितम् आसीत्। अद्य दिवा एकवादनाय आहुता राष्ट्रिय सभाया उपवेशः आगामिनो भाद्रस्य पञ्चम दिवसाय सारितो वर्तते। सत्तापक्षस्य प्रतिपक्षस्य च अनुरोधेन राष्ट्रिय सभाया उपवेशः भाद्रस्य पञ्चम दिवसस्य एकवादनाय निर्धारितो स्थिति संघीय संसद महासचिवेन डाक्टर भरतराज गौतमेन प्रकाशितायाम् सूचनायाम् उल्लिखितम् वर्तते। पेट्रोल डिजेल तैलयोः मूल्यम् वर्धितम् वर्तते। नेपाल तैल निगमस्य संचालक समिते ह्य उपविष्टेन उपवेशेन डिजेल मृत्तिका तैलयो प्रतिलिटरमितं 14 रूप्यकाणि पेट्रोल तैलस्य प्रतिलिटरमितं 5 रूप्यकाणि च वर्धाप्य मूल्य समायोजनं विहितं वर्तते। निगमस्य अनुसारेण अतःपरं पेट्रोल तैलस्य उपभोक्तृ मूल्यं प्रतिलिटरमितं 175 रूप्यकाणि डिजेल मृत्तिका तैलयो प्रतिलिटरमितं मूल्यं 0.5 रूप्यकाणि च निर्धारितानि सन्ति। भारतीय तैल निगमात् ह्य पेट्रोल डिजेल तैलयोः क्रमेण प्रतिलिटरमितं 0.8575 रूप्यकाणि 0.2581 रूप्यकाणि च मूल्यं प्रवर्ध्य मूल्यसूच्याः प्राप्तेः अनन्तरं नेपालेऽपि वृद्धिः विहितेति निगमेन ज्ञापितं वर्तते। नेकपा माओवादी केन्द्रस्य उपाध्यक्ष कृष्णबहादुर मुहरा वामपन्थीनाम् एकताम् अवरुद्धुम् आत्मनि षड्यन्त्रम् विहितम् इति गदति। दाङ जनपदस्य घोरा स्थिते निवासे ह्य पत्रकार सम्मेलनम् आयोज्य असौ आत्मना सर्वासाम् वामपन्थी शक्तिनाम् ऐक्यबद्धतायै भूमिका निर्वहणात् प्रहारो भवेदिति आशंकाम् अभिव्यनक। सुवर्ण तस्कर्यस्य प्रकरणे आत्मनः संयोजनमनु असौ ह्य दाङ जनपदे पत्रकार सम्मेलनम् आयोजितवान् आसीत्। उपाध्यक्ष महरा अनुसन्धानार्थं सर्वकाराय सहयोगो विधीयते इति समस्पष्टयत्। राष्ट्रिय परीक्षा समित्या द्वादश्याः कक्षायाः परीक्षाफलं गतदिने सार्वजनीकृतं वर्तते। समितेः उपविष्टेन उपवेशेन गत वैशाख मासस्य 27 दिवसात् ज्येष्ठ मासस्य 5 दिवसं यावत् सञ्चालितायाः द्वादश्याः कक्षायाः परीक्षायाः परिणामं सार्वजनिकर्तुं निर्णीतमिति समितेः प्रवक्ता जंगबहादुर अरियालः अज्ञापयत्। उपवेशानन्तरम् आयोजिते पत्रकार सम्मेलने द्वादश्यां कक्षायां प्रतिशतं 0.95% विद्यार्थिनः उत्तीर्णाः सन्तीति प्रवक्ता अरियालः असूचयत्। समितेः अनुसारेण नियमित समूहे समग्रतः लक्ष्यत्रयं ततिः सहस्राणि सप्तत्रिंशदधिक षट्शतं च विद्यार्थिनः परीक्षायां सहभागिनः आसन्। एतेषु लक्षं एकोननवतिः सहस्राणि एकसप्ततिश्च विद्यार्थिनः उत्तीर्णाः सन्ति। एकपञ्चाशतः परीक्षार्थिनां परीक्षा निरस्तीकृता वर्तते। इति समाचारः।